एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री शेरबहादुर देउवा नेपाले निवेशनम् कर्तुम् स्वदेशीयान वैदेशिकाञ्च निवेशकर्तृन् आह्वयति। निवेशन समिति नेपालेन ह्य आयोजितम् सबल पूर्वाधार निवेशन मञ्चम् उद्घाटयन् प्रधानमन्त्री देउवा सर्वकारेण निवेशनस्य वातावरणम् निर्मीयमाणम् अस्तीति हेतोः नेपाले निवेशनम् कृत्वा लाभम् प्राप्तुम् निवेशनकर्तृन् अन्वरुणत्। प्रधानमन्त्री देउवा सर्वकार हरित सबल पूर्वाधार निर्माणाय प्रतिबद्धोऽस्तीति चर्चयन् अभाषत। सर्वकारस्य सीमित श्रोतांसि आधुनिक हरित पूर्वाधाराणाम् निर्माणाय प्रयुज्यमानानि सन्ति। प्रधानमन्त्री देउवा नेपालः 27+2000 ख्रीष्टवर्षम् यावत् अल्पविकसित राष्ट्रात् स्तरोन्नतिम् अपेक्षते इति भाषमाणः एतदर्थम् संरचनागतस्य आर्थिकस्य च सुधारस्य आवश्यकतायै बलम् प्रादात्। कार्यक्रमे निवेशन समितेः प्रमुख कार्यकार्याधिकृतः सुशील भट्टः अगदत् समित्या कतिचित् विपुल परियोजनासु निवेशनाय संविदा सम्पादिता वर्तते। कार्यक्रमे प्रधानमन्त्री देउवा निवेशन समितेः सञ्जाले आदृतायाः एकल बिन्दु सेवायाश्च शुभारम्भम् व्यदधात्। प्रतिनिधि सभायाः ह्यस्तनोपवेशेन गत विक्रम वर्षीयम् कारागार विधेयकम् आधृत्य राष्ट्रिय सभातो विहितम् संशोधनम् सर्वसम्मत्या स्वीकृतमस्ति। तत्पूर्वम् सभामुखेन अग्निप्रसाद सापकोटाविदेन राष्ट्रपतेः कार्यालयात् प्राप्तानि विधेयक प्रमाणीकरणेन सम्बद्धम् पत्रम् श्रावितम् आसीत्। तत्पूर्वम् उपवेशस्य प्रारभणस्य अनुपदमेव समयम् अभियाच्य सांसदाः खगराज अधिकारी, सूर्य प्रसाद पाठकः, हितबहादुर तामाङ, प्रेम सुवालश्च विभिन्नेषु सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। एवमेव उपवेशस्य शून्य समये सांसदाः बर्दिया जनपदे वन्यपशोः आक्रमणेन मारितानाम् नाम परिवारैः क्षतिपूर्ति न प्राप्ता, शिक्षकाणाम् याचनासु सर्वकारः गभीरो न सम्भूत, सत्यनिरूपण मेलायोग विधेयकम् तत्कालम् पारितीकरणीयम् चेति अवोचन्। सांसदाः अवासन्त सामाजिक सञ्जालानाम् दुरूपयोगो विधीयमानोऽस्ति, डेंगूरोगस्य नियन्त्रणे सर्वकारः गभीरो न सम्भूतः, अछाम जनपदीया जनता राज्यस्य सेवा सौविध्याद् वञ्चिता अस्ति, संसदः कालस्य निर्वाचनायोगेन निर्धारणस्य कार्यम् अनुचितमस्ति, नागरिकता विधेयकस्य प्रमाणीकरणम् शीघ्रम् विधेयम्, चीनदेशेन सम्पृक्तान् प्रवेशबिन्दुन् सञ्चालयितुम् सर्वकारेण प्रयासश्च विधेयः। प्रतिनिधिसभायाः अपर उपवेशः अद्य दिवा एकवादने वसति। राष्ट्रिय सभाया गतदिवसीयोपवेशेन अर्थमन्त्रिण जनार्दन शर्मण पक्षता कृषि पशुपक्षी विकास मन्त्रिण मृगेन्द्र कुमार सिंह यादवेन प्रस्तुते प्रतिनिधि सभाता सन्देश सहितं प्राप्तं 75+2000 वैक्रमाब्दं सुरक्षण कोष विधेयकम्, 67+2000 वैक्रमाब्दं सार्वजनिक ऋण व्यवस्थापन विधेयकं च सर्वसम्मत्या स्वीकृते स्तः। उपवेशे विधायनं व्यवस्थापन समितेः सभापति डाक्टर बेदुराम भूषाल 67+2000 वैक्रमाब्देन पशु स्वास्थ्य पशु सेवा परिषद विधेयकेन सह सम्बद्धम् समितेः प्रतिवेदनम् प्रास्तोत। एवमेव राष्ट्रिय सभायाः सचिवः राजेन्द्र फुयालः प्रतिनिधि सभातः ससन्देशम् प्राप्तम् कतिचित् नेपालादि नियमान् संशोधयितुम् निर्मितम् एतत् विक्रम वर्षीयम् विधेयकम् प्रास्तोत। उपवेशे राष्ट्रिय सभायाः अध्यक्षः गणेश प्रसाद तिमल सिन्हा राष्ट्रपति कार्यालयात् प्राप्तम् विभिन्नानाम् विधेयकानाम् प्रमाणीकरण सम्बद्धम् पत्रम् अश्रावयत्। राष्ट्रिय सभायाः अपरोपवेश अद्य दिवा त्रिवादने वसति। राष्ट्रपतिना विद्यादेवी भण्डारिणा सह नेपाल भ्रमणे विद्यमानः चीन देशस्य राष्ट्रिय जन कांग्रेस स्थायी समितेः अध्यक्ष ली चान्सु ह्य शिष्टाचार मेलवार्ताम् व्यदधात्। शीतल निवास वर्तिनी राष्ट्रपति कार्यालय सम्पन्ने तस्मिन् मेलने राष्ट्रपति भण्डारी चीन देशीय नेतृ ली इत्यस्य नेपाल भ्रमणम् समालक्ष्य हर्षम् अभिव्यनक। मेलने अध्यक्ष ली सभामुखस्य अग्निप्रसाद सापकोटाविदस्य औपचारिक निमन्त्रणायाम् नेपाल भ्रमणावधौ प्राप्तान् सद्भावम् आत्मीयताम् सम्मानम् च प्रति आभारम् व्यक्तवान्। असोभाषत नेपालः चीन देशस्य चिरकालिका सुमधुर प्रतिवेशी वर्तते। नेपालस्य चतुर्दिवसीय भ्रमणे विद्यमानः चीन देशीय जन कांग्रेस स्थायी समिति अध्यक्ष ली चान्सु ह्य एव भक्तपुरस्य ऐतिहासिक सम्पदश्च अवालोकयत्। महाभियोग परामर्शन समित्या प्रधान न्यायाधीशा चोलेन्द्र शमशेर जबरा इत्यस्मात् प्रकथन विवरण ग्रहण क्रमे उच्चरित नाम्नः प्रदासीन न्यायाधीशान आकारयितुं निर्णीतं वर्तते। सिंहप्रासादे ह्य उपविष्टेन समिते उपवेशेन प्रधान न्यायाधीशेन जबरा इत्यनेन प्रकथन विवरण प्रदान क्रमे उच्चारित नाम्नः पदासीन न्यायाधीशान अपि आकारयितुं निर्णीतमिति समितेः सचिवः लक्ष्मीप्रसाद गौतमः अज्ञापयत। उपवेशेन प्रकथन विवरण ग्रहण क्रमे सम्पृक्त नामभ्यः पदासीन न्यायाधीशेभ्यः पूर्व न्यायाधीशेभ्यः नेपाल बार सर्वोच्च बार संघाभ्याम् वरिष्ठाधिवक्तृभ्यः अधिवक्तृभ्यश्च पत्राचारं विधातुं निर्णीतमिति समितेः सचिवः गौतमः ज्ञापितवान्। समितेः अपर उपवेश अद्य प्रातः सार्धाष्टवादने वसति। सर्वोच्च न्यायालयस्य पूर्णोपवेशेन महाभियोग परामर्शन समितो पदासीनानां न्यायाधीशानां गमनं संविधान सम्मतं न भवतीति हेतोः न गन्तुं निर्णीतमस्ति। कार्यवाहक प्रधान न्यायाधीशेन सहितानां सर्वोच्च न्यायालयस्य न्यायाधीशानां ह्य उपविष्टेन पूर्णोपवेशेन नेपालस्य संविधानस्य स्वतन्त्र न्यायपालिकायाः शक्तिपृथक्करणस्य सिद्धान्तस्य च अनुसारेण समितौ गमनम् उपयुक्तं न भवतीति निर्णीतमिति सर्वोच्च न्यायालय कार्यवाहक रजिस्ट्रार पदीय नारायण प्रसाद पन्थी अज्ञापयत। सर्वोच्च न्यायालयस्य पूर्णोपवेशस्य एवं निर्णयम् समितौ प्रेषयितुं निर्णीतं चास्तीति कार्यवाहक रजिस्ट्रार पदीय पन्थी ज्ञापितवान्। पदासीनानां न्यायाधीशानां समितौ आह्वानस्य निर्णयनस्य पत्रस्य सर्वोच्च न्यायालये प्राप्तेः अनन्तरं सर्वोच्च न्यायालयस्य न्यायाधीशानां पूर्णोपवेशः उपविष्टः आसीत्। नेपाली कांग्रेस दलस्य केन्द्रीय संसदीय समिते उपवेशेन कांग्रेस दलस्य पक्षतः आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधि सभायाः प्रदेश सभानां च निर्वाचनाय समानुपातिक निर्वाचन प्रणाल्याः पक्षस्य प्रत्याशिनां चयनाय चतुस्सूत्रात्मका धाराः मापदण्डाश्च निर्धारिताः सन्ति। दलसभापतेः प्रधानमन्त्रिणश्च शेरबहादुरदेवाभिधस्य सभापतित्वे ह्य बालुवाटार वर्तिनी प्रधानमन्त्री निवासे उपविष्टेन दलस्य उपवेशेन सम्प्रत्येव सम्पन्ने स्थानीय स्तराणां निर्वाचने कस्मिंचिदपि पदे प्रस्तुत प्रत्याशितो जनः प्रतिनिधि सभा प्रदेश सभानां समानुपातिक पक्षस्य प्रत्याशी भवितुं न शक्नोति। चतुस्सप्तत्यधिक द्विसहस्रतम विक्रम वर्षीय निर्वाचने समानुपातिक पक्षतः निर्वाचितो जनः पुनः समानुपातिक पक्षस्य प्रत्याशी भवितुं न शक्नोति। प्रत्याशीनां चयने व्यक्तिनां योग्यता नैतिकता कार्यक्षमता लोकतान्त्रिकान्दोलने प्रापितं योगदानं दलस्य विभिन्न स्तरेषु क्षेत्रेषु च विहितेन योगदानेन सह दलाय लोकप्रिय मतानि दापयितुं समर्थश्चेति आधारेषु विशेषं ध्यानं प्रदातुं निर्णीतमस्तीति दलस्य मुख्य सचिवेन कृष्णप्रसाद पौडेलेन ह्य प्रकाशितायं विज्ञप्तौ ज्ञापितं वर्तते। राष्ट्रपतिः विद्यादेवी भण्डारी बालबालिकानां सर्वांगीण विकासे योगदानस्य प्रापणत्वेन बाल प्रतिष्ठानस्य स्थापनायाः आवश्यकतां प्रदर्शयति इति समाचाराः।